सप्तमोऽध्यायः ध्यानम् ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीं कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोत्पासिभालाम् ॐ ऋषिरुवाच आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेतायुरप्युद्यतायुधाः ददृशुस्ते ततो देवीमीषत्तासां व्यवस्थिताम् सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ते दृष्ट्वा तां समादातुम् उद्यमं चक्रुरुद्यताः आकृष्टचापासितरास्तथान्येतत् समीपगाः ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति कोपेन चास्या वदनं मषीवर्णमभूत्तदा भ्रुकुटीकुटिलात्तस्या ललाटफलकादृतम् कालीकरालवदना विनिष्क्रान्तासि पाशिनी द्विचित्रखट्वाङ्गधरा नरमाला विभूषणा द्वीपि चर्म परिधाना शुष्कमांसातिभैरवा अतिविस्तारवदना जिह्वालनभीषणा निमग्नारक्तनयनादा पूरितदिङ्मुखा सा वेगेनापि पतिता घातयन्ती महासुरान् सैन्ये तत्र सुरारीणाम् अपक्षयत तद्बलम् पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टा समन्वितान् समादायैकहस्तेन मुखे चिक्षेपवारणान् तथैव योधं तुरगैरथं सारथिना सह निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् एकं जग्राहकेशेषु ग्रीवायामथ चापरम् पादेनाक्रम्य चैवान्यम् उरसान्यमपोथयत तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथा सुरैः मुखेन जग्राहरुषा दशनैर्मथितान्यपि बलिनां तद्बलं सर्वम् असुराणां दुरात्मनाम् ममर्दा भक्षयच्चान्यान् अन्यांश्चाताडयत्तथा असिनानिहताः केचित् केचित् खट्वाङ्गताडिताः जग्मुर्विनाशमसुरादन्ताग्राभिहतास्तथा क्षणेन तद्बलं सर्वम् असुराणां निपातितम् दृष्ट्वा चण्डो विदुद्रावताम् कालीमतिभीषणाम् शरवर्षैर्महाभीमैर्भीमाक्षीम् ताम् महासुरः छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः तानि चक्राण्यनेकानि विषमानानि तन्मुखम् बभोर्यथार्कबिम्बानि सुबहूनि घनोदरम् ततो जहासातिरुषा भीमम् भैरवनादिनी काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला उत्थाय च महासिंहम् देवी चण्डमथावत गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत अथ मुण्डोऽभ्यथावत्ताम् दृष्ट्वा चण्डम् निपातितम् तमप्यपातयद्भूमौ सा खड्गाभिहतम् मृषा हतशेषम् ततः सैन्यम् दृष्ट्वा चण्डम् निपातितम् मुण्डम् च सुमहावीर्यम् दिशो भेजे भयातुरम् शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् मया तवात्रोपरुतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयम् शुम्भम् निशुम्भम् च हनिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाच कालीम् कल्याणी ललितम् चण्डिकावचः यस्माच्चण्डम् च मुण्डम् च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॐ श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये सप्तमः ॐ तत्सत्।